एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल सर्वकारेण वर्तमानार्थिक वर्षस्य आयव्ययकम् प्रतिस्थापन विधेयकस्य माध्यमेन परिमार्जितम् वर्तते अध्यादेशेन आनीतम् आयव्ययकम् परिमार्ज्य सर्वकारेण प्रतिस्थापन विधेयकम् आनीतमस्ति प्रतिनिधि सभायाः गतदिने उपविष्टे तृतीयोपवेशे अर्थमन्त्री जनार्दन शर्मा षोडश खर्वाणाम् द्वात्रिंशत अब्जानाम् त्रयाशीतेः कोटीनाम् च रूप्यकाणाम् आयव्ययकम् प्रतिस्थापन विधेयकस्य रूपेण प्रास्तौत अर्थमन्त्री शर्मा प्रतिस्थापन विधेयके विहितस्य विनियोजनस्य मध्ये संघेन व्ययीकरणीयस्य सञ्चालनस्य पक्षे षड्खर्वाः सप्तसप्ततिः अब्जानि ऊनविंशतिः कोटयश्च अर्थात् प्रतिशतम् दशमलव पञ्च द्व्यधिकैक चत्वारिंशत् धनसञ्चयन पक्षे खर्वत्रयम् अष्टसप्ततिः अब्जानि दश कोटयश्च अर्थात् प्रतिशतम् दशमलवैक षडधिक त्रयोविंशतिः वित्तीय व्यवस्था पक्षे च खर्व ऊननवति अब्जानि चतुश्चत्वारिंशत् कोटयश्च अर्थात् प्रतिशतम् दशमलव षड् शून्याधिकैकादश च रूप्यकाणि विनियोजितानि सन्ति इति अवदत् आयव्ययके राजनीतिक परिवर्तनस्य आन्दोलने कृतबलिदानानां जनानां परिवारेभ्य प्रतिमासं सहस्रत्रयस्य रूप्यकाणां भरण प्रदानम् उद्घोषितं वर्तते संसदि आयव्ययकाध्यादेशस्य प्रतिस्थापन विधेयकं प्रस्तुवन् अर्थमन्त्री शर्मा हुतात्म परिवाराः सहस्रत्रयस्य रूप्यकाणां भरणं प्राप्स्यन्ति एवं एतादृशस्य भरणस्य जनयुद्ध जनान्दोलन सहितेषु आन्दोलनेषु त्यक्तजीवनानां जनानां परिवारैः प्राप्त्यर्थं व्यवस्थापितास्तीति अवोचत् अर्थमन्त्री शर्मा आयव्ययके अर्बुद वृक्कयोः गभीर रोगयोः गभीर मेरुदण्ड पक्षघातस्य च रोगिभ्यः प्रतिमासं सहस्रपञ्चकस्य रूप्यकाणां भरणं दातुमपि व्यवस्थापितास्तीति अवासत आयव्ययकस्य माध्यमेन सर्वकारीयोपवेशाय भ्रमणभरणाय प्रशिक्षणाय च आवंटितम् आयव्ययकं न्यूनीकृतमस्ति एवं न्यूनीकरणेन संचितानां पञ्चानाम् अब्जानां रूप्यकाणां वित्तं कोरोना प्रतिरोधिने टीकाकरणाय आवंटितं वर्तते आयव्ययके सर्वकारेण अवलम्बितानां नीति कार्यक्रमाणां क्रियान्वयनेन समानार्थिक वर्षे सप्त प्रतिशतम् आर्थिक वृद्ध्यङ्कमान अनुमितो वर्तते आयव्ययकेन अस्य आर्थिक वर्षस्य राजस्व परिचालन सम्बद्धान् नीति कार्यक्रमान् मूलभूतरूपेण यथावत् संस्थाप्य कतिचित् संशोधनं विहितमस्ति एवमेव आयव्ययकेन गतदिनादेव क्रियान्वयनत्वेन राजस्व नीतिकरौ निर्धार्य कोरोना विषाणोः कारणेन सृष्टेन संकटेन सृष्टायां प्रतिकूलावस्थायां करदातृभ्यः सौविध्यस्य माध्यमेन सहायतां प्रदाय तीव्रतराय आर्थिक पुनरुत्थानाय विकासाय च उच्चैः प्राथमिकता प्रदत्ता वर्तते प्रतिनिधि सभायाः गतदिवसीयेन द्वितीयोपवेशेन प्रमुख प्रतिपक्षीदलस्य विरोधस्य मध्यत एव एतद् विक्रमवर्षीया आर्थिकाध्यादेशः राष्ट्र ऋणोत्थापनाध्यादेशः विनियोजनाध्यादेशश्च स्वीकृताः सन्ति उपवेशे अर्थमन्त्रिणा जनार्दन शर्मणा प्रस्तुता इमे अध्यादेशाः उपवेशस्य बहुमतेन स्वीकृताः इमे अध्यादेशाः अस्वीकर्तव्याः इत्युक्त्वा सांसदेन प्रेम सुवालेन प्रस्तुतः प्रस्तावः उपवेशेन अस्वीकृतो अभवत् प्रमुख प्रतिपक्षीदलस्य सांसदानां समागोषोच्चारणस्य मध्ये सभामुखेन अग्निप्रसाद सापकोटाभिधेन संसदः कार्यसूची अग्रे सारिता आसीत् प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदानां विरोधस्य कारणेन प्रतिनिधि सभायाः गतदिवसीय प्रथमोपवेशः स्थगितः आसीत् उपवेशे सभामुखेन सापकोटाभिधेन प्रमुख प्रतिपक्षिणा उत्थापिते विषये आत्मना पूर्वमेव उत्तरं प्रदत्तम् इति निगद्य सर्वोच्च न्यायालये विचाराधीनतायाः कारणेन विषयमुम् नोत्थापयितुम् भूयो भूय अनुरुद्धम् आसीत् प्रतिनिधिसभायाः अपरोपवेशः स्वो रविवासरे दिवा एकवादने पुनर्वस्ता राष्ट्रिय सभायाः ह्यस्तनोपवेशे राजनैतिक दल सम्बद्धः एतद् विक्रमाद्यः द्वितीय संशोधनाध्यादेशः प्रस्तुतो वर्तते प्रमुख प्रतिपक्षिणो नेकपा एमाले दलस्य सांसदानां विरोधस्य मध्ये गृहमन्त्री बालकृष्ण खाण राजनैतिक दल सम्बद्धम् अध्यादेशमुम् प्रस्तुतवान् राष्ट्रिय सभायाः अपरोपवेशः अस्यैव भाद्रस्य अष्टाविंशे दिवसे दिवा एकवादने उपवेक्ष्यमाणत्वेन स्थगितीकृतो वर्तते प्रधानमन्त्रिण सर्वदेवाभिधेन सत्ता गठबन्धनस्य दलानां शीर्ष नेतृभिः सह मन्त्रिपरिषदः विस्तारस्य सामयिक राजनीतिक परिस्थितेश्च विषयेषु विमृष्टं वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे गठबन्धनस्य शीर्ष नेतृणाम् उपवेशे प्रधानमन्त्रिणा देवाभिधेन मन्त्रिपरिषदे पूर्णता प्रदातुं मन्त्रिषु सहभागिनां नेतृणां नामानि शीघ्रं दातुं च अनुरुद्धमिति राष्ट्रिय जनमोर्चा दलस्य नेत्री दुर्गा पौडेलः ज्ञापितवती। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड, नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल, जसपा दलस्य अध्यक्ष उपेन्द्र यादव, राष्ट्रिय जनमोर्चा दलस्य नेत्री दुर्गा पौडेलश्च सहभागिनः आसन्। प्रधानमन्त्रिणः सर्वदेवाभिधस्य एमसीसी नामिकायाः अमेरिका देशीय सहयोग परियोजनायाः उपाध्यक्षायाः फतिमा सुमार इत्यस्याश्च मध्ये एमसीसी संविधायाः विषये विमृष्टं वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्यः सम्पन्ने विमर्शने नेपाल अमेरिका देशयोः सहयोगेन सह एमसीसी संविधायाः नेपालस्य आर्थिक रूपान्तरणस्य च विषयेषु विमृष्टम्। एतद्विषये तत्सम्बद्धं विवरणं मन्त्रालयेन अद्य सार्वजनिक क्रियमाणमस्तीति अर्थमन्त्रालयो ज्ञापयति। परियोजनायाः उपाध्यक्षया सुमार इत्यनया ह्यः नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहाल प्रचण्डेन, ऊर्जोजलस्रोत सिञ्चन मन्त्रिणा पम्फा भूषालेन च सह पृथक् पृथक् मेलवार्ता विहितासीत्। राष्ट्रिय सुरक्षा परिषदः उपवेशे राष्ट्रस्य सामयिक परिस्थितेः राष्ट्रियान्तरराष्ट्रिय सुरक्षावस्थायाश्च विषययोः समीक्षा विहिता वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणः सर्वदेवाभिधस्य अध्यक्षतायां ह्यः उपविष्टे उपवेशे सीमा सुरक्षायाः अमेरिका देशीय सहयोग परियोजनायाश्च विषये अन्येषु सुरक्षा सम्बद्ध विषयेषु च समीक्षितं वर्तते। उपवेशे गृहमन्त्री बालकृष्ण खाँड, मुख्य सचिव शंकरदास वैरागी, प्रधान सेनापति प्रभुराम शर्मा, रक्षा सचिव वेगेन्द्र राज शर्मा चेत्यादि जनानाम् उपस्थिति रासीत्। नेपाली कांग्रेस दलेन दलस्य चतुर्दश महाधिवेशनस्य अन्तर्गतस्य अधिवेशनस्य कार्यतालिका संशोधिता वर्तते। अस्यैव भाद्रस्य अष्टाविंश दिवसाय निर्धारितस्य ग्राम नगर वडा क्षेत्राणाम् अधिवेशनस्य सर्वेष् जनपदेष् सम्पादनस्य समाप्तेः अनन्तरम् अधिवेशनस्य कार्यतालिका संशोधितेति कांग्रेस केन्द्रीय निर्वाचन समिते संयोजकः महादेव प्रसाद यादवः अज्ञापयत्। प्रदेशानाम् केन्द्रस्य च अधिवेशनस्य दिनांकाः यथावत् वर्तन्ते। नेपाली कांग्रेस दलेन प्रदेशानाम् अधिवेशनम् आगामी कार्तिकस्य दशम दिवसात् द्वादश दिवसम् यावत्, केन्द्रीय महाधिवेशनम् च आगामी मार्गशीर्षस्य नवम दिवसात् त्रयोदश दिवसम् यावत् आयोजयितुम् निर्णीतम् वर्तते। ऋषि पञ्चमी पर्वणि अद्य हिन्दू महिला सविधि ऋषि पञ्चमी पर्व समायोजयन्त्यः सन्ति। ऋषि पञ्चमी पर्वणि हिन्दू महिला प्रातकालिक नित्यक्रियां समाप्य गंगायाम् नद्यादौ ह्रदकूप तडाग धारादिषु च वा एत्या आचारानुसारेण अपामार्ग खण्डानां षष्टोत्तर त्रिशतेन दन्त धावनं विदाय स्नान्ति। अस्मिन् पर्वणि दीप कलश गणेश पूजन पूर्वकं सारुन्धतिकाः कश्यपादि सप्तर्षयः पूज्यन्ते। अद्य पूजनीयेषु सप्तर्षिषु गौतमः, अत्रि, भरद्वाज, विश्वामित्रः, कश्यप, जमदग्नि, वशिष्ठश्च सन्ति। दिवसेऽस्मिन् विभिन्नेषु ऋषिमन्दिरेषु ऋषीणां दर्शनपूजनार्थं महिलानाम् उपस्थितिः वर्तते। लोकोपकारिणां, महामनीषीणां, ऋषीणां स्मरणं तदीय मार्गम् अनुसृत्य अग्रेवर्धनञ्च अस्य पर्वणः महत्वाधायक पक्षो वर्तते। नेपाले ह्यातिरिक्तेषु स्वास्थ्य षट्चत्वारिंशदधिकशते च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयस्य अनुसारेण सम्प्रति आराष्ट्रं पञ्चदशसु जनपदेषु पञ्चशतादपि अधिका सक्रिय संक्रान्ता जना वर्तन्ते। ह्य आराष्ट्रम् अतिरिक्ता सहस्रं षष्ट्यधिक षट्शतञ्च जना कोरोना संक्रमणात् मुक्ता सन्ति। कोरोना संक्रमणेन ह्य आराष्ट्रम् अतिरिक्ता एकविंशति जना मृता। एतदनु संक्रमणेन आराष्ट्रं मृतानां जनानां ह्यस्तनावधि समग्र दश सहस्राणि चतुर्विंशत्यधिक नवशतं च प्राप्यति मन्त्रालयस्य सूचयति। मन्त्रालयस्य अनुसारेण ह्य आराष्ट्रम् अतिरिक्त हि उनत्रिंशत्सहस्रै उननवत्यधिक शतेन च जनै कोरोना संक्रमण प्रतिरोधी टीकाकरणं गृहीतमिति मन्त्रालयेन ज्ञापितं वर्तते। इति समाचाराः।